प्रणमयसि सा देवं गौरीपुत्रं विनायकं भक्तावासं स्मरेन्नित्यम् आयुकामार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्पिकांशं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठमकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णतथाष्टमं नवमं बालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसन्ध्यापठेन्नर न च विघ्नभयं तस्य सर्वसिद्धिकरं परं विद्यार्थिलब्धे विद्यां धनार्थिलब्धे धनं पुत्रार्थिलब्धे पुत्रान् मोक्षार्थिलब्धे गतिं जपेत् गणपतिस्तोत्रं सर्वभिर्मासफलं लभेत संवत्सरेण सिद्धिं च लभते नात्र संशय अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा समर्पयेत तस्य विद्वाभ्ये सर्वगणेशस्य प्रसादतः हरि ओम्।